अर्धमात्रिक बस्ति दशमूली कषायेण शदाह्वाक्षं प्रयोजयेत् सैंधवाक्षं च मधुनो द्विपलं द्विपलं तथा तैलस्य फलमेकन्दु फलस्येकत्र योजयेत् अर्धमात्रिकसज्ञोऽयं वस्तिर्देयो निरूहवत् न च स्नेहो न च स्वेद परिहार विधिर्न च आत्रेयानुमतो ह्येष सर्वरोगनिवारणः यक्ष्मघ्नश्च शूलघ्नश्च कृमिघ्नश्च विशेषतः शुक्रसञ्जननो ह्येष वातशोणितनाशनः बलवर्णकरो वृष्यो वस्ति पुंसवनः परः।